नमानां त्वा गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तवम् ज्येष्ठराजं ब्रह्मणाम् ब्रह्मणस्पत आनशृण्वन् नोतिभिः सेदसादनम् प्रणो देवी सरस्वती वाचिभिर्वाचिनीवते धीनामवित्रयवतु गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इषु शिवतमा शिवम् बभूवते धनुः शिवा शरव्यायातवतया नो रुद्रमृगया या ते रुद्र शिवा तनुरघोरा पापकाशिनी तया नस्तनुभाषन्तमया गिरिशन्ताभिचाकशीः यामिषुम् गिरिशम् दहस्ते बिभर्ष्यस्तवे शिवाङ्गिरित्रताङ्गुरुमायि गुंसीः पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्छा वदामसि यथा नः सर्वमिज्जगद यक्ष्मगुम् सुमना असत् अध्यवोचदधिवक्ता प्रथमो दैव्योऽभिषक् अहेकश्च सर्वान् जम्भयन् सर्वाश्च यातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रः सुमङ्गलः ये चेमागुम् रुद्रा अभितो दिक्षश्रुता सहस्रशो वैशागुम् हेड इमहे असव्यो वसत्पतिनीलग्रीवो विलोहितः उदैनम् गोपादृशन्नदृशन्नुदहार्यः उतैनम् विश्वा भूतानि स दृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे अथो ये अस्य सत्त्वानोऽहम् तेभ्यो गरम् नमः प्रमुञ्च ध्वन्वनस्त्वमुभयोरात्मियोज्या याश्च ते हस्त इषव पराता भगवो वप अवतत्य धनुस्त्वम् सहस्राक्षशतेषु दे निशीर्य शल्यानामुगा शिवो न सुमना भव विज्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् उदा अनेशन्नस्येषव आवुरस्य निषङ्गतिः या ते हेतिर्मीढुष्टमहस्ते बभूवते धनुः तया स्वान् विश्वतस्त्वमयक्ष्मया परिभुज नमस्ते अस्त्वायुधायानाततय धृष्णवे उभाभ्यामुतते नमो बाहुभ्याम् त्ववध्वन्वने परिते ध्वन्वनो हेतिरस्मान् वृणक्त विश्वतः अथो य इषुदिस्तवारे अस्मन्निधेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यवाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः सस्मिञ्जरायत्विषीमते पथीनां पतये नमो नमो बभ्रुषाय विव्याधिने नानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्राय तथा विने क्षेत्राणाम् पतये नमो नमः सूताय हन्त्याय वनानाम् पतये नमो नमो रोहितायस्त पतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवस्कृताय औषधीनाम् पतये नमो नम उच्चै रोषाय क्रन्दयते पत्तीनाम् पतये नमो नमः कृत्स्नवीताय धावते सत्त्वनाम् पतये नमः नमः सहमानाय निव्याधिनाव्याधिनीनाम् पतये नमो नमः ककुभाय निषङ्गणे सेनानाम् पतये नमो नमो निषङ्गण इषुधिमते तस्करानाम् पतये नमो नमो वञ्चते परिवञ्चते सायूनाम् पतये नमो नमो निचेरवे परिचरायारण्यानाम् पतये नमो नमः श्रिकाव्यभ्यो जिघागुम् सभ्यो मुष्णताम् पतये नमो नमो सिमद्भ्यो नक्तम् चरद्भ्य प्रकृन्दानाम् पतये नमो नम उष्णेशिरे गिरिचराय कुलुञ्चानाम् पतये नमो नम इषु मद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजभ्यश्च वो नमो नमोऽस्यभ्यो विद्यभ्यश्च वो नमो नम आसीनेभ्य शयानेभ्यश्च वो नमो नमः स्वपद्भ्यो जाग्रभ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावभ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्यो अश्वपतिभ्यश्च वो नमः नम आव्याधिनेभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्त्रिगुंहतेभ्यश्च वो नमो नमो कृत्सेभ्यो कृत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रथेभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः क्षत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्टेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयोभ्यश्वनिभ्यश्च वो नमो नमश्वभ्यश्वपतिभ्यश्च वो नमः namo bhavaya cha rudraya cha nama sarvaya cha pashupataye cha namo nilagrivaya cha shitikanthaya cha nama kapardine cha vyuktakeshaya cha nama sahasakshaya cha shatadhanvane cha namo girishaya cha shipivishtaya cha namo mirushtamaya cha shumate cha namo rasvaya cha vamanaya cha namo brihate cha varshiyase cha namo vriddhaya cha samvriddhane cha namo agriyaya cha prathamaya cha nama aashave cha jiraya cha nama shigriyaya cha shibhyaya cha nama urmyaya cha vasvanyaya cha nama shrotasyaya cha dvipyaya cha namo jyeshthaya cha kanishthaya cha nama purvajaya cha parajaya cha namo madhyamaya cha pagalbhaya cha namo jaganyaya cha buddhiyaya cha nama sobhyaya cha pratisaryaya cha namo yamyaya cha kshemyaya cha nama urvaryaya cha khalyaya cha nama shlokyaya cha vasanyaya cha namo vanyaya cha kakshaya cha nama shravaya cha pratishravaya cha nama ashushenaya cha shurathaya cha nama shuraya cha vabhirdhate cha namo varmine cha varothine cha namo bhilmine cha kavachine cha nama shrutaya cha shrutasenaya cha namo dandubhyaya cha hananyaya cha namo dhrishnave cha pravashaya cha namo dutaya cha prahitaya cha namo nishangine cha shudhimate cha nama tikshveshave cha yudhine cha nama swayudhaya cha sudhanvane cha nama shrutyaya cha patyaya cha nama kātyāya cha nīpyāya cha nama sugyāya cha saratyāya cha namo nādyāya cha vaiṣantāya cha nama kūpyāya cha vatyāya cha namo varśyāya cha varśyāya cha namo meghyāya cha vidyutyāya cha nama ఇంద్రియాయ చ తప్యాయ చ నమో వాత్యాయ చ రేష్మ్యాయ చ నమో వాస్తవ్యాయ చ వాస్తుపాయ చ ఓం హర 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 ఓం నమః సోమాయ చ రుద్రాయ చ నమః తామ్రాయ చ అరుణాయ చ నమః శంగాయ చ పశుపతయే చ నమః ఉగ్రాయ చ భీమాయ చ నమో అగ్రే వధాయ చ దూరే వధాయ చ నమో హంతే చ హనీయసే చ నమో వృక్షేభ్యో హరికేశేభ్యో నమః తారాయ నమః శంభవే చ మయోభవే చ నమః శంకరాయ చ మయస్కరాయ చ నమః శివాయ చ శివతరాయ చ నమస్తేత్యాయ చ కోల్యాయ చ నమః పార్యాయ చ వాద్యాయ చ నమః ప్రతరణాయ చోత్తరణాయ చ నమః ఆతార్యాయ చ లాద్యాయ చ నమః షష్ప్యాయ చ భేన్యాయ చ నమః శిఖత్యాయ చ ప్రవాఖ్యాయ చ నమ ఇలిన్యాయ చ ప్రభత్యాయ చ నమః కేగుంశిరాయ చ క్షయణాయ చ నమః కపర్దినే చ పులస్తయే చ నమో గోష్ఠ్యాయ చ గృహ్యాయ చ నమః స్థల్ప్యాయ చ గేహ్యాయ చ నమః కాట్యాయ చ గవ్వరేష్టాయ చ నమో హృదయాయ చ నివేష్ప్యాయ చ నమః पागुं सव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्व्याय च सौर्म्याय च नमः पण्याय च पर्णशद्याय च नमोपगुरमाणाय च विघ्नते च नमः आख्यदते च प्रख्यदते च नमो वक्रिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीरकेभ्यो नमो विचिन्वक्केभ्यो नम आनिर्हतेभ्यो नम आविवक्केभ्यः द्रापे अन्धसस्पते दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् माभिर्मा रोमो येषाम् किञ्च नाममत या ते रुद्र शिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तया नो मृडजीवसे इमागुम् रुद्राय तवसेकपर्दिने क्षयद्वेराय प्रभरामहे मतिम् यथा नश्यमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रो तनो मयस्कृति क्षयद्वेराय नमसा विधेमते यच्छम् च योश्च मनुराय जे पिता तदश्याम तव रुद्र प्रणीतौ मानो महान्तमुतमानो अल्पकम् मान उक्षन्तमुतमान उक्षितम् मानो वरे पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतन ये मान आयुषि मानो गोषु मानो अश्वेषुरीरिषः वीरान्मानो रुद्रभावितो वरेर्हविष्मन्तो नमसा विधेमते आराते गोघ्न उत पोरुषग्रे क्षयद्वेराय स्वम् नमस्मेते अस्तु रक्षाजनो अधि च देव ब्रूयदाचर शर्व यच्छ द्विवराः सुहिश्रुतम् गर्त सदयुदानम् मृगन्न भीममुपहत्वमुग्रम् मृडा चरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेते विडक्त्वपरित्वेषस्य दुर्मतिरगायोः अवस्थिरा भगवद्भ्यस्तनुष्वमीरस्तोकायतनयाय मृडया मीढुष्टम शिवतम शिवो न सुमना भव परमे वृक्ष आयुधम् निधाय कृत्यम् वसा न आचर पिनाकम् बिभ्रदागहे विकिरिल विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम्भेतयोन्यमस्मन्निव पन्थुताः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः तासामीशानो भगवः पराचीनामुखाकृति सहस्राणि सहस्रशो ये रुद्रा अधिभूम्या तेषागुम् सहस्रयोजने वधन्वानि तन्मसि अस्मिन् महत्यर्णवेऽन्तरिक्षे भव अधि नीलग्रीवाश्रितिकण्ठा शर्वा अधः क्षमाचरा नीलग्रीवाश्रितिकण्ठादिवगु रुद्रा उपश्रिताः ये वृक्षेषु सत्ते जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिखास कपर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु विवतो जनान् ये पथाम् पति रक्षय ऐलभृदाय व्युधः ये धीतानि प्रचरन्ति श्रुकावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्थिरे तेषागुम् सहस्रयोजने वधन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्याम् येन्तरिक्षे ये दिवि ये शामन्नम् वातो वर्षविषवस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रतिचेर्दशोदे चेर्दशोर्ध्वास्तेभ्यो नमस्ते नो वृण यन्तु तेयम् विश्वो यश्च नो द्वे स्मितम् भोजम् भेदधामि त्र्यम्बकै यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धना मृत्योर्मुक्षेयवामृतात् यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्व भुवनाधिवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्योर्मर्त्यायान्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनाप्याय स्वा नमो रुद्राय विश्ववे मृत्युर्मे पाहि तमस्तु हि यः स्वशस्वधन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वाहेसौ मनसाय रुद्रन्नमो भिर्देवमसुरन्धुवस्य अयम् मे हस्तो भगवान् अयम् मे भगवत्तरः अयम् मे विश्वभेषजो यगुम् शिवाभिमर्शनः ॐ शान्ति शान्ति शान्तिः ॐ अग्ना विष्णु सजोषसे मा वर्धन्तु वाङ्गिरः द्युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे पानश्च मे व्यानश्च मे सुश्च मे चित्तम् च माधीतम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च मओजश्च मे सहश्च मायुश्च मे जरा च मात्मा च मे तनुश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे जैश्चम् च माधिपत्यम् च मे मन्युश्च मे भामश्च मे मश्च मेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्ष्मा च मे द्राघुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे त्विषिश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमाणम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुगम् च मे सुपदम् च मरुद्धम् च मरुद्धिश्च मे क्लृप्तम् च मे क्लृप्तिश्च मे मतिश्च मे सुमतिश्च मे शयम् च मे मयश्च मे प्रियम् च मेऽनुकामश्च मे కామశ్చ మే సౌమనసశ్చ మే భద్రం చ మే శ్రేయశ్చ మే వశ్యశ్చ మే యశశ్చ మే భగశ్చ మే ద్రవిణం చ మే యంతా చ మే ధత్తా చ మే క్షేమశ్చ మే ధృతిశ్చ మే విశ్వం చ మే మహశ్చ మే సంవిచ్చ మే జ్ఞాత్రం చ మే సోశ్చ మే ప్రసోశ్చ మే శీరం చ మే లయశ్చమృతం చ మే మృతం చ మే యక్ష్మం చ మే నామయచ్చ మే జీవాతుశ్చ మే దీర్ఘాయుత్వం చ మే న మిత్రం చ మే భయం చ మే సుగం చ మే శయనం చ మే సూషా చ మే సుదినం చ మే ఊర్చ మే సోనృతా చ మే పయశ్చ మే రసశ్చ మే ఘృతం చ మే మధు చ మే సగ్ధిశ్చ మే సపేతిశ్చ మే కృషిశ్చ మే వృష్టిశ్చ మే జైత్రం చ మౌద్భిద్యం చ మే రయిశ్చ మే రాయశ్చ మే పుష్టం చ మే పుష్టిశ్చ మే విభుచ మే ప్రభు చ మే బహు చ మే భూయశ్చ మే పూర్ణం చ మే పూర్ణతరం చ మే క్షితిశ్చ మే కూయవాశ్చ మే అన్నం చ మే క్షుచ్చ మే బ్రీహయశ్చ మే యవాశ్చ మే మాషాశ్చ మే తిలాశ్చ మే ముద్గాశ్చ మే ఖల్వాశ్చ మే గోధూమాశ్చ మే మసురాశ్చ మే ప్రియంగవశ్చ మేణవశ్చ మే శామకాశ్చ మే నివారాశ్చ మే అశ్మాచ మే మృత్తికాచ మే గిరయశ్చ మే పర్వతాశ్చ మే శిఖతాశ్చ మే వనస్పతయశ్చ మే హిరణ్యం చ మే యశ్చ మే శేషం చ మే త్రపుశ్చ మే శ్యామం చ మే లోహం చ మే అగ్నిశ్చ మాపశ్చ మే వేరుధశ్చ మౌషధయశ్చ మే కృష్టపచ్యం చ మే కృష్టప చ్యం చ మే గ్రామ్యాశ్చ మే పశవారణ్యాశ్చ యజ్ఞేన కల్పంతాం విత్తం చ మే విత్తిశ్చ మే భూతం చ మే భూతిశ్చ మే వసు చ మే వసతిశ్చ మే కర్మ చ మే శక్తిశ్చ మే అర్థశ్చ మయేమశ్చ మయితిశ్చ మే గతిశ్చ మే అగ్నిశ్చ మ ఇంద్రశ్చ మే సోమశ్చ మ ఇంద్రశ్చ మే సవితా చ మ ఇంద్రశ్చ మే సరస్వతీ చ మ ఇంద్రశ్చ మే పూషా చ మ ఇంద్రశ్చ మే బృహస్పతిశ్చ మ ఇంద్రశ్చ మే మిత్రశ్చ మ ఇంద్రశ్చ మే వరుణశ్చ మ ఇంద్రశ్చ మే త్వష్టా చ మ ఇంద్రశ్చ మే ధాతా చ మ ఇంద్రశ్చ మే విష్ణుశ్చ మ ఇంద్రశ్చ మే శ్వినౌ చ మ ఇంద్రశ్చ మే మరుతశ్చ మ ఇంద్రశ్చ మే విశ్వే చ మే దేవా ఇంద్రశ్చ మే పృథివీ చ మ ఇంద్రశ్చ మేంతరిక్షం చ మ ఇంద్రశ్చ మే ద్యౌశ్చ మ ఇంద్రశ్చ మే దిశశ్చ మ ఇంద్రశ్చ మే మూర్ధా చ మ ఇంద్రశ్చ మే ప్రజాపతిశ్చ మ ఇంద్రశ్చ మే అంశుశ్చ మే రశ్మిశ్చ మేధాభ్యశ్చ మేధిపతిశ్చ మ ఉపాగుంశుశ్చ మే అంతర్యామశ్చ మ ఐంద్రవాయవశ్చ మే మైత్రావరుణశ్చ మ ఆశ్వినశ్చ మే ప్రతిప్రస్థానశ్చ మే శుక్రశ్చ మే మంథే చ మ ఆగ్రహణశ్చ మే వైశ్వదేవశ్చ మే ధ్రువశ్చ మే ವೈಶ್ವಾನರಶ್ಚ ಮರುತುಗ್ರಹಾಶ್ಚ ಮೇತಿ ಗ್ರಾಹ್ಯಾಶ್ಚ ಮೈಂದ್ರಾಗ್ನಶ್ಚ ಮೇ ವೈಶ್ವದೇವಶ್ಚ ಮೇ ಮರುತ್ವತೇಯಾಶ್ಚ ಮೇ ಮಾಹೇಂದ್ರಶ್ಚ ಮಾದಿತ್ಯಶ್ಚ ಮೇ ಸಾಭಿತ್ರಶ್ಚ ಮೇ ಸಾರಸ್ವತಶ್ಚ ಮೇ ಪೌಷ್ಣಶ್ಚ ಮೇ ಪಾತ್ರೀಭತಶ್ಚ ಮೇ ಹಾರ್ಯೋಜನಶ್ಚ ಮೇ ಇದ್ಮಶ್ಚ ಮೇ ಬರ್ಹಿಶ್ಚ ಮೇ ವೇದಿಶ್ಚ ಮೇ ಧಿಷ್ಣಿಯಾಶ್ಚ ಮೇ ಸೃಜಶ್ಚ ಮೇ ಚಮಸಾಶ್ಚ ಮೇ ಗ್ರಾವಾಣಶ್ಚ ಮೇ ಸ್ವರವಶ್ಚ ಮ ಉಪರವಾಶ್ಚ ಮೇ ದ್ವಿಷವಣೇ ಚ ಮೇ ದ್ರೋಣಕಲಶಶ್ಚ ಮೇ ವಾಯವ್ಯಾನಿ ಚ ಮೇ ಪೋಧಭೃಚ್ಚ ಮಾಧವನೀಯಶ್ಚ ಮಾಗ್ನೇಧ್ರಂ ಚ ಮೇ ಹವಿರ್ಧಾನಂ ಚ ಮೇ ಗೃಹಾಶ್ಚ ಮೇ ಸದಶ್ಚ ಮೇ ಪುರೋಡಾಶಾಶ್ಚ ಮೇ ಪಜತಾಶ್ಚ ಮೇ ವಭೃತಶ್ಚ ಮೇ ಸ್ವರಾಕಾರಶ್ಚ ಮೇ ಅಗ್ನಿಶ್ಚ ಮೇ ಘರ್ಮಶ್ಚ ಮೇರ್ಕಶ್ಚ ಮೇ ಸೂರ್ಯಶ್ಚ ಮೇ ಪ್ರಾಣಶ್ಚ ಮೇಶ್ವಮೇಧಶ್ಚ ಮೇ ಪೃಥಿವೇ ಚ ಮೇ ದಿಶ್ಚ ಮೇ ದಿಶ್ಚ ಮೇ ದ್ಯೌಶ್ಚ ಮೇ ಶಕ್ವರೇ ರಂಗುಲಯೋ ದಿಶಶ್ಚ ಮೇ ಯಜ್ಞೇನ ಕಲ್ಪಂತಾಮೃಚ್ಚ ಮೇ ಸಾಮ ಚ ಮೇ ಸೋಮಶ್ಚ ಮೇ ಯಜುಶ್ಚ ಮೇ ದೀಕ್ಷಾ ಚ ಮೇ ತಪಶ್ಚ ಚಮ ಋತುಶ್ಚ ಮೇ ವ್ರತಂ ಚ ಮೇ ಹೋರಾತ್ರಯೋರ್ವೃಷ್ಟ್ಯಾ ಬೃಹದ್ರದಂತರೇ ಚ ಮೇ ಯಜ್ಞೇನ ಕಲ್ಪೇತಾಂ ಗರ್ಭಾಶ್ಚ ಮೇ ವತ್ಸಾಶ್ಚ ಮೇ ತ್ರಯವಿಶ್ಚ ಮೇ ತ್ರಯವೇ ಚ ಮೇ ದಿತ್ಯವಾಚ್ಯ ಮೇ ದಿತ್ಯೋಹಿ ಚ ಮೇ ಪಂಚಾವಿಶ್ಯ ಮೇ ಪಂಚಾವೇ ಚ ಮೇ ತ್ರಿವತ್ಸಶ್ಚ ಮೇ ತ್ರಿವತ್ಸಾ ಚ ಮೇ ತುರ್ಯವಾಚ್ಯ ಮೇ ತುರ್ಯೋಹಿ ಚ ಮೇ ಪಷ್ಠವಾಚ್ಯ ಮೇ ಪಷ್ಠೋಹಿ ಚ ಮುಕ್ಷಾ ಚ ಮೇ ವಶಾ ಚ ಮೃಷಭಶ್ಚ ಮೇ ವೇಹಶ್ಚ ಮೇ ನಡ್ವಾಂಚ ಮೇ ಧೇನುಶ್ಚ ಮಾಯುತ್ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಪ್ರಾಣೋ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಅಪಾನೋ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ವ್ಯಾನೋ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಚಕ್ಷುರ್ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಗುಶ್ರೋತ್ರೈ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಮನೋ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ವಾಗ್ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಆತ್ಮಾ ಯಜ್ಞೇನ ಕಲ್ಪತಾಯಜ್ಞೋ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಏಕಾ ಚ ಮೇ ತಿಸ್ರಶ್ಚ ಮೇ ಪಂಚ ಚ ಮೇ ಸಪ್ತ ಚ ಮೇ ನವ ಚ ಮ ಏಕಾದಶ ಚ ಮೇ ತ್ರಯೋದಶ ಚ ಮೇ ಪಂಚದಶ ಚ ಮೇ ಸಪ್ತದಶ ಚ ಮೇ ನವದಶ ಚ ಮ ಏಕವಿಗುಂಸದಿಶ್ಚ ಮೇ ತ್ರಯೋ ವಿಗುಂಸದಿಶ್ಚ ಮೇ ಪಂಚ ವಿಗುಂಸದಿಶ್ಚ ಮೇ ಸಪ್ತ ವಿಗುಂಸದಿಶ್ಚ ಮೇ ನವ ವಿಗುಂಸದಿಶ್ಚ ಮ ಏಕತ್ರಿಗುಂಸಚ್ಚ ಮೇ ತ್ರಯಸ್ತ್ರಿಗುಂಸಚ್ಚ ಮೇ ಚತಸ್ರಶ್ಚ ಮೇಷ್ಟೌ ಚ ಮೇ ದ್ವಾದಶ ಚ ಮೇ ಷೋಡಶ ಚ ಮೇ ವಿಗುಂಸದಿಶ್ಚ ಮೇ ಚತುರ್ವಿಗುಂಸದಿಶ್ಚ ಮೇಷ್ಟಾ ವಿಗುಂಸದಿಶ್ಚ ಮೇ ದ್ವಾತ್ರಿಗುಂಸಚ್ಚ ಮೇ ಷತ್ರಿಗುಂಸಚ್ಚ ಮೇ ಚತ್ವಾರಿಗುಂಸ ಚ ಮೇ ಚತುಶ್ಚತ್ವಾರಿಗುಂಸಚ್ಚ ಮೇ ಸಚತ್ವಾರಿಗುಂಸಚ್ಚ ಮೇ ವಾಜಶ್ಚ ಪ್ರಸವಶ್ಚ ಭಿಜಶ್ಚ ಕ್ರತುಶ್ಚ ಸುಭಶ್ಚ ಮೂರ್ಧಾ ಚ ವ್ಯಸ್ನಿಯಶ್ಚಾಂತ್ಯಾಯನಶ್ಚಾಂತ್ಯಶ್ಚ ಭುವನಶ್ಚ ಭುವನಶ್ಚಾಧಿಪತಿಶ್ಚ ಇಡಾ ದೇವೋರ್ಮನುರ್ಯಜ್ಞರೇ ಬೃಹಸ್ಪತಿರುಕ್ತಾ ಮದಾನಿಶಗುಂ ಚಿಷದ್ವಿಶ್ವೇ ದೇವಾ ಸೋ ಉಕ್ತವಾಚ पृथिवीमा तर्मा माहिगुंसीर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुमदिष्यामि मधुमतीम् देवेभ्यो वाच मुद्यासगुम् शुश्रूषेण्या मनुष्येभ्यस्तम् मा देवा अवन्तु शोभाये पितरो नु मदन्तो ॐ शान्ति शान्ति शान्तिः ॐ अत्रिणात्वा कृमे हन्ने कर्णेन जमदग्निना विश्वावसो ब्रह्मणा हतः कृमीनागुम् राजा अप्येषागुस्तपतिर्हतः अथो माताथो पिता अथो स्थूरा अथो क्षुद्रा अथो कृष्णा अथो श्वेता अतो आशातिका हताः श्वेताभिः सह सर्वे हताः आहरावद्या श्रुतस्य हविषो यथा तत्सत्यम् यदमुह्यमस्य जम्भयो आदधामि तथा हि तत् खण्फन्रसे ॐ शान्ति शान्ति शान्तिः ॐ योपां पुष्पं वेदा पुष्पवान् प्रजावान् पशुवान् भवति चन्द्रमा वा अपां पुष्पम् पुष्पवान् प्रजावान् पशुमान् भवति य एवम् वेद योपामायतनम् वेद आयतनवान् भवति अग्निर्वा अपामायतनम् आयतनवान् भवति योऽग्नेरायतनम् वेद आयतनवान् भवति आपो वा अग्नेरायतनम् आयतनवान् भवति य एवम् वेद योपामायतनम् वेद आयतनवान् भवति वायुर्वा अपामायतनम् आयतनवान् भवति यो वायोरायतनम् वेद आयतनवान् भवति आपो वै वायोरायतनम् आयतनवान् भवति य एवम् वेद योपामायतनम् वेद आयतनवान् भवति असौ वै तपन्नपामायतनम् आयतनवान् भवति यो मुष्यतपत आयतनम् वेद आयतनवान् भवति आपो वा अमुष्यतपत आयतनम् आयतनवान् भवति य एवम् वेद योपामायतनम् वेद आयतनवान् भवति चन्द्रमा वा अपामायतनम् आयतनवान् भवति यश्चन्द्रमस आयतनम् वेद आयतनवान् भवति आपो वै चन्द्रमस आयतनम् आयतनवान् भवति य एवम् वेद योपामायतनम् वेद आयतनवान् भवति नक्षत्राणि वा अपामायतनम् आयतनवान् भवति यो नक्षत्राणामायतनम् वेद आयतनवान् भवति आपो वै नक्षत्राणामायतनम् आयतनवान् भवति य एवम् वेद योपामायतनम् वेद आयतनवान् भवति पर्जन्यो वा अपामायतनम् आयतनवान् भवति यः पर्जन्यस्यायतनम् वेद आयतनवान् भवति आपो वै पर्जन्यस्यायतनम् आयतनवान् भवति य एवम् वेद योपामायतनम् वेद आयतनवान् भवति संवत्सरो वा अपामायतनम् आयतनवान् भवति यः संवत्सरस्यायतनम् वेद आयतनवान् भवति आपो वै संवत्सरस्यायतनम् आयतनवान् भवति य एवम् वेद योऽसु नामम् प्रतिष्ठिताम् वेद प्रत्येव तिष्ठते राजाधिराजाय प्रसंयसाहिरे नमो भयम् वै श्रवणाय कुर्महे समे कामान् कामकामाय मह्यम् कामेश्वरो वै श्रवणो दधातु कुबेराय वै श्रवणाय महाराजाय नमः पुरुषस्य विद्मसहस्राक्षस्य मा देवस्य धीमहि तन्नो रुद्र प्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्र प्रचोदयात् तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ति प्रचोदयात् तत्पुरुषाय विद्महे चक्रतुण्डाय धीमहि तन्नो नन्दि प्रचोदयात् तत्पुरुषाय विद्महे महासेनाय धीमहि तन्नः षण्मुख प्रचोदयात् तत्पुरुषाय विद्महे सुवर्णपक्षाय धीमहि तन्नो गरुड प्रचोदयात् वेदात्मनाय विद्महे हिरण्यगर्भाय धीमहि तन्नो ब्रह्म प्रचोदयात् नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णु प्रचोदयात् वज्रनखाय विद्महे तीक्ष्णदग्निष्ठाय धीमहि तन्नो नारसिंह प्रचोदयात् भास्कराय विद्महे महद्युतिकराय धीमहि तन्नो आदित्य प्रचोदयात् वैश्वानराय विद्महे लालीलाय धीमहि तन्नो अग्नि प्रचोदयात् कात्यायनाय विद्महे कन्याकुमारि धीमहि तन्नो दुर्गे प्रचोदयात् ॐ साईश्वराय विद्महे सत्यदेवाय धीमहि तन्नः सर्वप्रचोदयात् ह హంస హంసాయ విద్మహే పరమహంసాయ ధీమహే తన్నో హంస ప్రచోదయాత్. స్వస్తి ప్రజాభ్యః పరిపాలయంతాం న్యాయేన మార్గేణ మహీ మహేషాః గోబ్రాహ్మణేభ్యః శుభమస్త్వమిత్యం సమస్తలోకాః సుఖినో భవంతు. సమస్తలోకాః సుఖినో భవంతు. ఓం శాంతి శాంతి శాంతి.